इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी सबलं प्रत्यपादयत् यत् भारत चीन देशयोः मध्ये विषम सम्बन्धान् दूरीकर्तुम् उभयोः देशयोः सीमा प्रसंगानां तात्कालिकं समाधानम् आवश्यकम् अस्ति। श्रीमोदी अकथयत् यत् भारत चीनयोर्मध्ये स्थायि शान्तिपूर्ण सम्बन्धः न केवलं उभाभ्यां देशाभ्याम् अपितु समग्र विश्वाय महत्वपूर्णम् अस्ति। एकस्मिन् साक्षात्कारे प्रधानमन्त्रिणा आशा अभिव्यक्ता यत् राजनैतिक सैन्यस्तरयोः सकारात्मक रचनात्मक वार्तयोः माध्यमेन उभौ देशौ सीम्नि शान्तिस्थायित्वं च स्थापयितुं समर्थाः भविष्यतः। श्रीमोदी भारतीय लोकतन्त्र विषये अपि उक्तवान् यत् मतदातृणां नैरन्तर्येण प्रवर्धमानं सहभागित्वं लोकतन्त्रं प्रति जनानां विश्वासस्य प्रमाणम् अस्ति। विश्वस्य बृहत्तमस्य लोकतन्त्रस्य रूपेण वर्षे 19,000+ सामान्य निर्वाचने 60 कोटि+ मतदानं कृतवन्तः। साम्प्रतं यावत् अस्य वर्षस्य सामान्य निर्वाचने देशस्य 70 कोट्यधिकाः मतदातारः स्वीय मताधिकारस्य उपयोगं करिष्यन्ति। एतदर्थम् आदेशे 10,00,000+ मतदान केन्द्राणि अपि निर्मीयन्ते। लोकसभा निर्वाचनानां तृतीय चरणाय अधिसूचना अद्य सम्प्रसारयिष्यते। चरणेऽस्मिन् 10 राज्यानां 2 केन्द्रशासित प्रदेशयोः 94 लोकसभा आसनानां कृते मे मासे 7 दिनांके मतदानं भविष्यति। मध्यप्रदेशस्य बैतूल निर्वाचनस्य अधिसूचना अपि अद्य एव प्रसारयिष्यति। अस्मिन् संसदीय निर्वाचन क्षेत्रे द्वितीय चरणे मतदानं भवितुम् इति निश्चितम्। परं बहुजन समाज पार्टीति दलस्य प्रत्याशिनः निधनात् निर्वाचन प्रक्रिया एषा स्थगिता जाता। अस्मिन् चरणे 29 तारिकां यावत् नामांकनं प्रपूरयिष्यति। विविध राजनैतिक दलानां शीर्ष नेतारः लोकसभा निर्वाचनस्य प्रथम चरणाय नैर्वाचनिक जनसभासु प्रचाराय निमग्नाः सन्ति। अवधेयं वर्तते यत् अस्य मासस्य 19 दिनांके 21 राज्यानां केन्द्रशासित प्रदेशानां च 2,50,000 आसनेभ्यः मतदानं भविष्यति। भाजपेति दलस्य वरिष्ठनेता प्रधानमन्त्री च नरेन्द्रमोदी कथितवान् यत् अस्य वर्षस्य निर्वाचनं विकसित भारत अभियानाय ऊर्जास्वरूपं वर्तते। ह्यः राजस्थानस्य करौली जनपदे एका जनसभा श्रीमोदिना सम्बोधिता। इतः प्राक् श्रीमोदिना ऋषिकेश उत्तराखण्डे अपि जनसभाः सम्बोधिताः। प्रोक्तं च यत् विगत 10 वर्षेषु भारतीय जनतान्त्रिक संयुत्या अशेष राष्ट्राय सुदृढता प्रदत्ता। प्रधानमन्त्रिणा भणितं यत् तदीय प्रशासनेन वन रैंक वन पेंशन इति नामधेया योजना सैनिकेभ्यः प्रारब्धा। कांग्रेसदलस्य पूर्वाध्यक्षः राहुल गांधी कथितवान् यत् अस्मिन् देशे विषयद्वयमस्ति, वृत्त्याभावः महर्घता च, परञ्च इतरेभ्यः विषयेभ्यः अत्यधिकं महत्वं दीयते। असौ ह्यः राजस्थानस्य अनूपगढे स्थले एकां जनसभां सम्बोधयन् आसीत्। आईपीएल इत्यस्यां क्रिकेट स्पर्धा मालिकायां मुम्बय्याः वानखेड़े क्रिकेट क्रीडांगणे मुम्बई इण्डियंस दलेन रॉयल चैलेंजर्स बैंगलुरू दलं 7-0 पराजितम्। अद्य लखनऊ नगरस्य लखनऊ सुपर जायंट्स दलस्य स्पर्धा डेल्ही कैपिटल्स दलेन सह भविष्यति। इति वार्ताः।